यज्ञस्य भूरथ्यम् विश्वतिम् विशाम् भूतानमत्तो रतीथिम् विभावासुम् सोऽयम् चुष्टा सुभदीनेषु जद्भूरद्विषा चेतुर्य जतोद्यामसायन इमान्तस्पामुभये अकण्वत धर्माणामग्निम् विदधस्य साधनम् आत्मन्नयक्वमुरसः पुरोहितम् तनूनपादमरुडस्य निंसते वनस्य नीताभिपणेश्च मन्महे भजास्य प्रभूता सुरत्तवे यदा घोरासो अमृतत्वमासदादिज्जनस्य दैव्यस्य चर्किरन् ऋतस्य हि प्रसीदर्जौ ऋतुव्यतो नमो मह्यानिपणीयसि इन्द्रो मित्रो वरो नः सन्ति यत्रेधो भगस्य पिता भूतदक्षतः रुद्रेण जीनायन्ति सिन्धावस्तिरो महीमरमाजिन्दधन्विरे तेभिः परिज्ञापरियन्नुरुद्रयो विरोरुवज्जठरे विश्वमुक्षते प्राणारुद्रामृतो विश्वकृष्णयो दिवस्येनासो असूरस्य नीलयाः देभिश्चष्टे वरुणो मित्रो यमेन्द्रो देवेभिरर्वसेभिरर्वसः इन्द्रे भुजम् दशमानाथ आसदसूरो ऋषीके वृषणश्च पुंसे ऋषेन्वस्यार्हणाः तदक्षिणे युजम् वज्रम् दृषदानेषु कालवाः सूरस्थिता हरितो अश्वरेण मलिन्द्रादागस्तिभजते तवीयसः भीमस्य विष्णोः जगराजविश्वसो दिवे दिवे सभूरिस्तन्नपाधितः सोमम् वो अद्य रुद्राय दिक्पादे क्षयद्वीराय नमासादितिष्ठन येभिः शिवस्वभाङ्गे भयामभिर्दिवस्निरग्निस्वजसानिकामभिः देहि प्रजाया अभरन्धविश्रभो बृहस्पतिर्वृषभः सोमायामयः सर्वाप्रथमो विधारयद्देवादक्षयेभ्यगावस्वन्तीरित्रिरे ये हिद्या वा पृथिवी भूरिवेदसारदूरङ्गो यमोदीः देवस्त्वष्टाद्रविनोदार्भुक्षणप्रलोदसी मरुतो विष्णोरर्हिरे उदस्यना गुर्भिया कविरहि शृणोत बुद्ध्यो कविमणि सूर्यामासा विचरम् दादिवीक्षितामीनभुरीवोधरम् प्रणः पूरासरथम् विश्वदेव्योपान्नपादवतु वायुवृष्टये आत्मानम् वस्यो अभिवादमचरश्विनासुभवायामनिःश्रुतम् विशामासामभानामधिक्षितम् येभ्यस्वजासनम् गृणीमसि नाभिर्विश्वाभिरतिमनर्वणमक्रोर्युवानम्भ्रमणाधापतिम् प्रेभदत्र जनुषा पूर्वो अङ्गीराग्रावाणभूर्ध्वा अभिलक्षुरध्वरम् येभिर्विहाजा अभवद्विदक्षणः पाथः सुमेकाम् सुधीर्वणन् वदि